ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। ब्रह्मोवाच इति तद्गृणताम् तेषाम् मुनीनाम् योगधर्मिणाम् प्रतिनन्द्यजगादेदम् विकुण्ठनिलयो विभुः। श्रीभगवानुवाच एतौ तौ पार्षदौ मह्यम् जयो विजय एव च कदर्थीकृत्य माम् यद्वो बह्वक्रातामतिक्रमम् यस्त्वेतयो धृतो दण्डो भवद्भिर्मामनुव्रतैः स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् तद्वः प्रसादयाम्यद्य ब्रह्मदैवम् परम् हि मे तद्धीत्यात्मकृतम् मन्ये यत्स्वपुंभिरसत्कृताः यन्नामानि च गृह्णाति लोकोभृत्ये कृतागसि सोऽसाधुवादस्तत्कीर्तिम् हन्ति त्वचमिवामयः यस्यामृतामलयशः श्रवणावगाहः सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः सोऽहम् भवद्य उपलब्धसुतीर्थकीर्तिश्छिन्द्याम् स्वबाहुमपि वा प्रतिकूलवृत्तिम् यत्सेवया चरणपद्मपवित्ररेणुम् सद्यक्षताखिलमलम् प्रतिलब्धशीलम् न श्रीर्विरक्तमपि माम् विजहाति यस्याः प्रेक्षालवार्थ इतरे नियमान् वहन्ति नाहम् तथाग्नि यजमान् हविर्वितने स्योतद्घृतप्लुतमदन्हुतभुङ्मुखेन यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासम् तुष्टस्य मय्यवहितैर्निजकर्मपाकैः येषाम् बिभर्म्यहमखण्डविकुण्ठयोग मायाविभूतिरमलाङ्घ्रिरजः किरीटैः विप्रांस्तु को न विषहेत यदर्हणाम्भः सद्यः पुनाति सह चन्द्रललामलोकान् ये मे तनूर्द्विजवरान् दुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या द्रक्ष्यन्त्यघक्षतदृशो यहि मन्यवस्तान् दृद्रारुषा मम कुशन्त्यसि दण्डनेतुः ये ब्राह्मणान् मैधिया क्षिपतोऽर्चयन्तस्तुष्यद्धृतः स्मितसुधोक्षितपद्मवक्त्राः वाण्यानुरागकलयात्मजवद्गृणन्तः सम्बोधयन्त्यहमिवाहमुपारितस्तैः तन्मे स्वभर्तुरवसायमलक्ष्यमाणौ युष्मद्व्यतिक्रमगतिम् प्रतिपद्य सद्यः भूयो ममान्तिकमिताम् तदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः। ब्रह्मोवाच अथ तस्योऽसतीम् देवीम् ऋषिकुल्याम् सरस्वतीम् नास्वाद्यमन्युदष्टानाम् तेषामात्माप्यतृप्यत सतीम् व्यादाय शृण्वन्तो लघ्वीम् गुरुवर्तगह्वराम् विगाह्यागाधगम्भीराम् न विदुस्तच्चिकीर्षितम् ते योगमायारब्ध पारमेष्ठ्यमहोदयम् प्रोचुः प्राञ्जलयो विप्रः प्रविष्टः क्षुभितत्वचः ऋषय ऊचुः न वयम् भगवन् विद्मस्तवदेव चिकीर्षितम् कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभासते। ब्रह्मण्यस्य परम् दैवम् ब्राह्मणाः किल ते प्रभो विप्राणाम् देवदेवानाम् भगवानात्मदैवतम् त्वत्तः सनातनो धर्मो रक्षते तनुभिस्तव धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः तरन्ति यञ्जसा मृत्युम् निवृत्ता यदनुग्रहात् योगिनः स भवान् किंस्विदनुगृह्येत यत्परैः यम् वै विभूतिरुपयात्यनुवेलमन्यैरर्थार्थिभिः स्वशिरसा धृतपादरेणुः धन्यार्पिताङ्घ्रितुलसी नवदामधाम्नो लोकम् मधुव्रतपतेरिव कामयाना यस्ताम् विविक्तचरितैरनुवर्तमानाम् नात्याद्रियत्परमभागवतप्रसङ्गः सत्त्वम् द्विजानुपथपुण्यरजःपुनीतः श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् धर्मस्य ते भगवतस्त्रियुगत्रिभिस्वैः पद्भिश्चराचरमिदम् द्विजदेवतार्थम् नूनम् भृतम् तदभिघातिरजस्तमश्च सत्त्वेन नो वरदया तनुवा निरस्य न त्वम् द्विजोत्तमकुलम् यदिहात्मगोपम् गोप्ता वृषस्वर्हणेन ससूनृतेन तर्येव नङ्क्षति शिवस्तवदेव पन्था लोको ग्रहीष्य दृषभस्य हि तत्प्रमाणम् तत्तेन भीष्टमिव सत्त्वनिधेर्विधित्सोः क्षेमम् जनाय निजशक्तिभिरुद्धितारेः नैतावता त्र्यधिपतेर्बत विश्वभर्तुस्तेजक्षतम् त्ववनतस्य सते विनोदः यम् वानयोर्दममधीश भवान् विधत्ते वृत्तिम् नु वा तदनुमन्महि निर्व्यलीकम् अस्मासु वाय उचितो ध्रियताम् स दण्डो येनागतौ वयमयुङ्क्ष्महि किल्बिषेण। श्रीभगवानुवाच एतौ सुरेतरगतिम् प्रतिपद्य सद्यः संरम्भसंभृतसमाध्यनुबद्धयोगौ भूयः सकाशमुपयास्यताशु यो वः शापोमयैव निमितस्तदवैतविप्राः। ब्रह्मोवाच अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् వైకుంఠం తదధిష్టానం వికుంఠం చ స్వయం ప్రభం భగవంతం పరిక్రమ్య ప్రణిపత్యానుమాన్య చ ప్రతిజగ్మో ప్రముదితా సంసంతో వైష్ణవీం శ్రియం భగవానను గావాహ యాతం మా భైష్టమస్తుషం బ్రహ్మతేజ సమర్థోపి హంతుం నేచ్ఛేమతం తు మే ఏతత్పురైవ నిర్దిష్టం రమయా క్రుద్ధయా యదా పురాపవారితాద్వారి విశంతి మయ్యుపారతే మయి సంరంభయోగేన నిస్తీర్య బ్రహ్మహేళనం ప్రత్యేష్యతం నికాశం మే కాళేనాల్పీయసా పునః ద్వాస్థావాదిస్య భగవాన్ విమానశ్రేణిభూషణం సర్వాతిశయయా లక్ష్మ్యా దుష్టం స్వం ధిష్ణ్యమావిశత్ తౌ తు గీర్వాణ ఋషభౌ దుస్తరాద్ధరి లోకతః హతశ్రియౌ బ్రహ్మశాపాదభూతాం విగతస్మయౌ తదా వికుంఠధిషణాత్ తయోర్నిపతమానయోః హాహాకారో మహానాసీద్విమానాగ్రేషు పుత్రకాః తావేవ యధునా ప్రాప్తౌ పార్షద ప్రవరౌ హరేః జితేర్జఠర నిర్విష్టం కాశ్యపం తేజ ఉల్బణం తయోరసురయోరద్య తేజసా యమయోర్హివః ఆక్షిప్తం తేజ ఏతర్హి భగవాన్స్తద్విధిత్సతి విశ్వస్య యః స్థితిలయోద్భవహేతురాద్యో యోగేశ్వరైరపి దురత్యయ యోగమాయః క్షేమం విధాస్యతి సనో భగవాన్ స్త్ర్యధీశస్తత్రాస్మదీయ విమృశేన కియా నిహార్థః ఓం స్వస్తి శ్రీమద్భాగవతే మహాపురాణే పారమహంస్యాం సంహితాయాం తృతీయస్కంధే షోడశోధ్యాయః శ్రీకృష్ణార్పణమస్తు నమోస్తు తే మహాయోగిన్ ప్రపన్నమనుషాధిమాం యథా త్వచ్చరణాం భోజే రతిః స్యాదనపాయినీ.